सर्वेषां संस्कृतकक्षायां पुनः एकवारं स्वागतम्. आरम्भे अहम् एकं श्लोकं वदामि. मन्त्रे तीर्थे देवे दैवज्ञे भेषजे गुरौ यादृशी भावना यस्य सिद्धिर्भवति तादृशी. इत्युक्ते अत्र अस्मिन् श्लोके षट् पदानि सन्ति. मन्त्रे तीर्थे देवे दैवज्ञे भेषजे गुरौ एतानि षट् पदानि सप्तमीविभक्त्यन्तरूपाणि. अत्र एकं नूतनं पदमस्ति दैवज्ञः. दैवज्ञः इत्युक्ते भविष्यवक्ता अथवा ज्योतिषकः इति अर्थः. अपि च भेषजम् इति एकं पदमस्ति. भेषजम् इत्युक्ते औषधं. वयं साधारणतया शृणुमः एकं पदं भिषक् इति वयं जानीमः, जकारान्तपदं भिषक्. अत्र भिषक् इत्युक्ते वैद्यः. बिभेति अस्मात् रोगः भिषज इति अर्थः. अत्र भिषक् इत्युक्ते वैद्यः. अत्र श्लोकम् उक्तवती, किन्तु अस्य श्लोकस्य कः अर्थः इति ज्ञातव्यम्. अर्थः कः इत्युक्ते, यदा वयं मन्त्रम् उच्चरामः, तीर्थयात्रां कुर्मः, अथवा देवपूजां कुर्मः, अथवा दैवज्ञस्य पार्श्वे गत्वा किमपि ज्ञातुमिच्छामः, अथवा वैद्यस्य समीपं गत्वा तत्र किमपि औषधसेवनं कुर्मः, अथवा अन्ततो गत्वा गुरोः आश्रयं प्राप्य किमपि ज्ञातुमिच्छामः, तदा अस्माकं मनसि कीदृशी भावना अस्ति इत्यस्य प्राधान्यमस्ति. अत्र अस्माकं मनसि मन्त्रं प्रति वा गुरुं प्रति वा अथवा औषधं प्रति अस्माकं मनसि कीदृशी भावना अस्ति इत्युक्ते, तेषां प्रति अस्माकं मनसि सद्भावना अस्ति चेदेव वयं तेषां वचनानि अमूल्यानि इति मत्वा सम्यक् श्रुत्वा अवगम्य आचर्य उत्तमं फलं प्राप्तुं शक्नुमः. किन्तु यदि तादृशी भावना नास्ति चेत् तदा किं कुर्मः? तदा वयं सम्यक् कार्यं न कुर्मः. तदा इत्युक्ते अस्माकं मनसि सद्भावना नास्ति चेत् तदा वयं किमपि न कुर्मः. इत्युक्ते केवलं तेषां वचनानि शुष्काणि इति मत्वा अवधानम् अदत्वा तस्य आचरणं न कुर्मः. यदि वयं न आचरामः तदा किमपि फलं प्राप्तुं न शक्नुमः इति तु अयं श्लोकः वदति. किन्तु अत्र चाणक्यनीतिः इत्यस्मिन् ग्रन्थे अयं श्लोकः अस्ति. तस्मिन् श्लोके तत्र चाणक्यः वदति, यादृशी भावना यस्य सिद्धिर्भवति तादृशी. यस्य भावना यादृशी अस्ति तादृशी सिद्धिः एव भवति इति अर्थः. परन्तु किमर्थम् अहम् अद्य इमं श्लोकं वदामि इत्युक्ते, अत्र गते सप्ताहे वयं ऋचुवाचकशब्दानां विषये किञ्चित् अधीतवन्तः. अद्य अस्माकं कक्षायां कानिचन नूतनानि पदानि पठामः. तत्र नूतनानि पदानि कानि इत्युक्ते, कीदृश, ईदृश, तादृश, यादृश, एतादृशानि पदानि अद्यतनपाठे वयं ज्ञास्यामः. अत्र श्लोके किं पदमस्ति? यादृशी भावना इति पदमस्ति. अत्र भावना इति पदं स्त्रीलिङ्गपदमस्ति इति कृत्वा तत्र यादृशपदमपि स्त्रीलिङ्गे दत्तमस्ति. यादृशी भावना अस्ति तादृशं फलं प्राप्नुमः इति अर्थः. इत्युक्ते यादृशपदं विशेषणम् इति कृत्वा तस्य रूपाणि त्रिषु लिङ्गेषु भवन्ति इति वयं जानीमः. अत्र कीदृश इति पदं पश्यामश्चेत् तत्र किं योगः दृष् धातुः अस्ति, अपि च अन्यः प्रत्ययः अपि अस्ति. अपि च गते सप्ताहे वयं रुचिवाचकशब्दानां विषये किञ्चित् अधीतवन्तः. तत्र अस्माकं ज्येष्ठाः किं वदन्ति, नित्यं षड्रसोपेतभोजनं कर्तव्यम्। तत्र पश्यन्तु एकं पदमस्ति, समस्तं पदं षट् उपेतभोजनं, षट् इति संख्यावाचकपदं, रस रस इत्युक्ते रुचिः, उपेत उपेत इत्युक्ते समन्वित, पोसेस्ड् वित् आर् अकम्पनीड् बै इति अर्थः समन्वित। भोजनं, भोजनम् इति पदं लुडन्तपदं, साधारणतया संस्कृतभाषायां बहूनि पदानि धातुतः निष्पन्नानि, अत्र भुज् धातोः रूपं भोजनं, नित्यं षड्रस उपेतभोजनं कर्तव्यम् अथवा करणीयम् इति अस्माकं ज्येष्ठाः वदन्ति। किन्तु अद्य वयं गृहपाठविषये न चर्चयामः, केवलम् अभ्यासपुस्तके एव, इतोपि किं दत्तमस्ति अत्र कीदृश इत्यस्मिन् विषये किञ्चित् पश्येम। अधुना सर्वे एकवारम् अभ्यासपुस्तकं पश्यन्तु, तत्र त्रिषष्टितमं पुटं पश्यन्तु, तत्र त्रिषष्टितमं पुटं पश्यामश्चेत् तत्र किं दत्तमस्ति इति अधुना ज्ञास्यामः। अधुना अत्र लक्ष्मी भगिनी, भवत्याः पार्श्वे अभ्यासपुस्तकमस्ति वा?
अस्ति भगिनि।
त्रिषष्टितमं पुटं पश्यतु, तत्र किं दत्तमस्ति एकवारम्। अपि च अत्र एकं सम्भाषणमस्ति, सम्भाषणम् अत्र आपणिकः अपि च रमः रमा अत्र सायिकृष्णमहोदय अपि च लक्ष्मीभगिनी, सायिकृष्णमहोदयः आपणिकः, लक्ष्मीभगिनी रमा, सम्भाषणं पठन्तु।
आपणिकः, अहम् आपणिकः भगिनि,
भवान् आपणिकः, लक्ष्मीभगिनी रमा बालिका।
अस्तु, भवती किम् इच्छति?
अहं पाञ्चालिकाम् इच्छामि।
कीदृशपाञ्चालिका इच्छति?
पश्यतु, ईदृशपाञ्चालिकाम् इच्छामि, अस्ति वा?
अस्ति, परन्तु
वदतु महोदय, अत्र अग्रिमे पुटे सम्भाषणमस्ति।
अस्ति, परन्तु तादृशपाञ्चालिकायाः मूल्यं
कथं वदामः संस्कृतभाषायां? विंशतिः,
विंशतिः मूल्यं, विंशतिः विंशतिः रूप्यकाणि।
दर्शयतु भोः, आपणिकः दर्शयति। किं भोः, मम सखी अपि ह्यः ईदृशपाञ्चालिकाम् एव क्रीतवती, तस्याः मूल्यं तु दशरूप्यकाणि एव।
प्रायः सा पाञ्चालिका ईदृशपाञ्चालिका न स्यात्।
ईदृशपाञ्चालिका एव भोः, अहं सम्यक् जानामि।
तर्हि पञ्चदशरूप्यकाणि ददातु, नयतु।
न न, पञ्चदशरूप्यकाणि अधिकानि, अहं तु दशरूप्यकाणि ददामि।
भवतु, पाञ्चालिकां स्वीकरोतु।
उत्तमम्, उत्तमरीत्या सम्भाषणम् अभवत्। अत्र सर्वे एकवारं चित्रं पश्यन्तु, चित्रे किं दत्तमस्ति, अत्र चित्रस्य दर्शनेन वयं किम् अवगन्तुं शक्नुमः। अत्र एकः आपणः अस्ति, आपणः इत्युक्ते स्टोर्, आपणः अस्ति, यः आपणे कार्यं करोति सः आपणिकः, अत्र एकः आपणिकः अस्ति. आपणिकः इत्युक्ते के कः भगिनी वदतु?
शाप्कीपर्.
शाप्कीपर्, स्टोर् कीपर्, उत्तमं. सः आपणे कार्यं करोति. तत्र एका बालिका आगच्छति. बालिकायाः नाम किम्?
रमा. बालिकायाः नाम रमा.
बालिकायाः नाम रमा. तयोर्मध्ये एकं सम्भाषणं सञ्जातं. तत्र कीदृशं सम्भाषणं सञ्जातम् इत्युक्ते अत्र सम्भाषणस्य पठनेन वयम् अवगन्तुं शक्नुमः यत् तयोर्मध्ये कीदृशं सम्भाषणम् अभवत्. अधुना एव भवती पठितवती. अत्र एकमेकं वाक्यं स्वीकृत्य किञ्चित् चिन्तनं कुर्मः. तत्र प्रथमतया आपणिकः पृच्छति, भवती किमिच्छति इति वदति. अत्र इच्छति इति पदं क्रियापदमस्ति, किन्तु तत्र धातुः अस्ति इश्. इश् धातुः, इश् धातोः रूपम् इच्छति. इश् धातुः सकर्मकधातुः, अतः कर्मपदं स्वीकरोति. तदर्थमेव तत्र प्रश्नेवाचकवाक्यं पश्यतु, भवती किम् इच्छति इति उक्तमस्ति. तत्र इश् धातुः, तत्र इच्छति सकर्मकक्रियापदमस्ति इति कृत्वा तत्र किम् इच्छति इति तत्र वाक्यं लिखितमस्ति. तस्य उत्तरं किं? सा किम् उक्तवती?
अहं पाञ्चालिकाम् इच्छामि.
अहं पाञ्चालिकाम् इच्छामि इति उक्तवती. तत्र प्रथमान्तं रूपं पाञ्चालिका, किन्तु अत्र पाञ्चालिकाम् इच्छामि इति उक्तवती. किमर्थं चेत् तत्र तस्मिन् वाक्ये वदतु.
द्वितीयविभक्ति
किमर्थम्?
कर्मपदम्.
उत्तमं. कर्मपदम् इत्युक्ते इष् धातुः अथवा इच्छामि, इच्छति इति क्रियापदं सकर्मकक्रियापदमस्ति इति कृत्वा तत्र कर्मपदम् आगतम्. अहं पाञ्चालिकाम् इच्छामि. परन्तु आपणिकः वदति कीदृशपाञ्चालिकाम् इच्छति भवती इति पृच्छति. अत्र वदतु भगिनि कीदृश. अत्र एकवारं पश्यन्तु, पाञ्चालिका इति पदमस्ति. तत्र कथं लिखितमस्ति एतत् पदं सर्वे पश्यन्तु. तत्र अनुस्वारः, अनुस्वारस्य स्थाने तत्र चवर्गीय अन्तिमव्यञ्जनं. चवर्गीय अन्तिमव्यञ्जनं किं भगिनि वदतु? वदतु चवर्गे के के वर्णाः सन्ति? अरुणा भगिनी वदतु एकवारं. चवर्गे
पुनः वदतु.
चवर्गे चवर्गीयव्यञ्जनानि कानि? इत्युक्ते चवर्गीयव्यञ्जनं, चवर्गीय अन्तिमव्यञ्जनं लिखितमस्ति. तत्र अनुस्वारस्य स्थाने चवर्गीय अन्तिमव्यञ्जनम्, अन्तिमव्यञ्जनं लिखितमस्ति. तत्र पश्यन्तु पाञ्चालिका, तत्र अनुस्वारः नास्ति. तत्र एकं सूत्रमस्ति संस्कृतभाषायाम् अनुस्वारस्य ययि परसवर्णः इति सूत्रेण परसवर्णादेशः भवति. तत्र सन्धेः नाम अस्ति परसवर्णसन्धिः. तत्र पाञ्चालिकां, तत्र पाञ्चालिका इति पदं तादृशरीत्या एव लेखनीयम् अस्माभिः अपि. उत्तमम्. अनन्तरं कीदृशपाञ्चालिकाम् इच्छति? तत्र कीदृश इत्युक्ते किं भगिनि वदतु? लक्ष्मी भगिनि
विच् कैण्ड्?
आपणिकः पृच्छति कीदृशपाञ्चालिकाम् इच्छति भवती, आफ् वाट् कैण्ड् इति सः पृच्छति. तदा तस्याः उत्तरं किं?
दिस् कैण्ड्, विच् ईदृश.
ईदृश, उत्तमं. पश्यतु इत्युक्ते तत्र तस्याः हस्ते एका पाञ्चालिका अस्ति, अपि च आपणे अपि अन्याः पाञ्चालिकाः सन्ति. एकां पाञ्चालिकां दर्शयित्वा सा बालिका वदति ईदृशम्, ईदृशपाञ्चालिकाम् इच्छामि अस्ति वा, सा पृच्छति. इदानीं पर्यन्तं वयं कीदृश कीदृश इति पदं तत्र प्रश्नार्थकपदं, किन्तु ईदृश आफ् दिस् कैण्ड् इति अर्थः. ईदृशपाञ्चालिका अस्ति वा इति सा पृच्छति. हा, तदा तस्य उत्तरं किम्? आपणिकः किं वदति? वदतु.
अस्ति, परन्तु तादृशपाञ्चालिकायाः मूल्यं विंशति रूप्यकाणि.
आपणिकः वदति, मम आपणे तादृशपाञ्चालिका अस्ति, किन्तु तस्याः पाञ्चालिकायाः मूल्यं विंशतिरूप्यकाणि. अत्र रूप्यकाणि इति पदमस्ति, तत्र एकवचनरूपं किं भगिनि? हाय् कृष्णमहोदय, भवान् वदतु.
नपुंसकलिङ्गं वा रूप्यकं?
रूप्यकं,
रूप्यकं,
रूप्यकं, किन्तु अत्र बहुवचनरूपमस्ति रूप्यकाणि. तत्र रूप्यकाणि इति दत्तमस्ति, तत्र नकारः किमर्थमस्ति? कोऽपि वदति वा? अत्र अरुणा भगिनी वक्तुं शक्नोति वा? रूप्यकाणि तत्र णकारः, मूर्धन्यणकारः किमर्थमस्ति? लक्ष्मी भगिनी भवती वदति वा? तत्र रूप्यकम् एकवचनरूपं, रूप्यकाणि, किन्तु फलं फलानि इति वदामः, किन्तु अत्र रूप्यकाणि इति दत्तमस्ति. वदतु. उत्तमं, तदेव. इत्युक्ते तत्र रेफः अस्ति, तस्मिन् पदे रेफः अस्ति इति कारणतः तत्र दन्त्यनकारस्य स्थाने मूर्धन्यणकारादेशः भवति. रूप्यकाणि साधारणतया वयं वनं वनानि, फलं फलानि इति वदामः, किन्तु अत्र रूप्यकं रूप्यकाणि दत्तमस्ति. इत्युक्ते तत्र तस्मिन् पदे रेफः अस्ति, तस्मात् कारणात् तत्र मूर्धन्यणकारादेशः भवति. तत्रापि सूत्रमस्ति, तत्र प्रत्येकस्य पदस्य निर्माणार्थं बहूनि सूत्राणि कार्याणि कुर्वन्ति संस्कृतभाषायां.
ओक प्रश्नः.
वदतु महोदय.
द्वितीया विभक्ति रामशब्दः प्लूरल् द्वि बहुवचनं यञ्चिन् रामान्
रामान्
रामान् that won't come more than yana na no
tatra na bhavati tatra api ekam sutram asti sutram asti iti karanatah ichukte nakara nakarah padante asti chet tatra natvam na bhavati yadyapi tatra tatra api ekam sutram asti kimartham tatra murdhanya nakarah na bhavati ityasya krute sutram asti तत् किं वदति इत्युक्ते पदान्ते नकारः अस्ति चेत् तत्र णत्वं मा भवतु इति तत् सूत्रं वदति. यदा भवान् उक्तवान् रामान्, तत्र निमित्तमस्ति किन्तु णत्वं न भवति. इत्युक्ते संस्कृतभाषायां तत्र सूत्रमस्ति, प्रथमतया सूत्रं पठामः, तदनन्तरं सूत्रस्य कृते केचन अपवादाः सन्ति. अपवादाः इत्युक्ते exceptions. First you will be given a rule and then you will be given exceptions also. And many sutras they play a role. Atrapi tatrapi sutram asti. Anantram atra tada tasya mulyam vimshati rupyakani tada rama vadati darshayatu bhoh इति वदति. अत्र दर्शयतु, साई कृष्णमहोदय वदतु, लकारः कः?
कोऽपि
वदतु.
लोट्
लोट् लकारः, उत्तमं. लोट् लकारः अत्र दर्शयतु इति पदं निजन्तरूपम् इति वदामः. निजन्तरूपम् इत्युक्ते णिच् प्रत्ययान्तरूपं दर्शयतु. किन्तु साधारणरूपमस्ति पश्यतु. दृश् धातोः साधारणरूपं पश्यति, किन्तु णिजन्तरूपं दर्शयति इति अस्ति. पश्यति इत्युक्ते रमा पश्यति, परन्तु कः दर्शयति? आपणिकः दर्शयति. किं दर्शयति आपणिकः? अत्र आवरणे पश्यन्तु, तत्र आवरणे किं दत्तमस्ति? आवरणे भगिनी एकवारं वदतु, आवरणे किं लिखितमस्ति?
ईदृशपाञ्चालिका.
आवरणे इत्युक्ते ब्राकेट्स्.
आपणिकः दर्शयति.
दर्शयति. आपणिकः किं दर्शयति?
सः पाञ्चालिकां दर्शयति.
कां दर्शयति? पालिकां. रमां दर्शयति. रमां दर्शयति. तत्रापि एकं सूत्रमस्ति, बालिकाम् इति द्वितीयाविभक्त्यन्तरूपं किमर्थं वक्तव्यं, तस्य कृते एकं सूत्रमस्ति, दृशेश्च इति सूत्रमस्ति. तेन चिन्ता मास्तु. अत्र आपणिकः रमां एकां पाञ्चालिकां दर्शयति. तदा सा किं वदति? किं भोः, मम सखी अपि ह्यः, वयं पठितवन्तः ह्यः श्वः तादृशानि पदानि वयं जानीमः. ह्यः ईदृशपाञ्चालिकाम् एव क्रीतवती, इत्युक्ते सा तत्र दृष्टवती, पाञ्चालिकां दृष्ट्वा सा वदति, मम सखी, मम मित्रमपि ईदृशपाञ्चालिकाम् एव क्रीतवती. अत्र एकं नूतनं पदं क्रीतवती. कोऽपि वदति वा अस्य पदस्य विषये? तावत् रूपम्. अत्र लट्लकाररूपं वदतु कोऽपि.
क्रीणाति.
क्रीणाति. उत्तमं भगिनी, धन्यवादः. अत्र स्त्रीलिङ्गे रूपमस्ति क्रीतवती. वयं पठितवन्तः तावत् प्रत्ययान्तरूपाणि, क्रीतवती, क्रीतवान्. वयं भूतकालार्थे कृदन्तपदानि इत्युक्ते धातुतः निष्पन्नानि पदानि एतानि, क्रीतवती, क्रीतवान्, क्रीतवान्, क्रीतवन्तौ, क्रीतवन्तः पुंलिङ्गे, क्रीतवती, क्रीतवत्यौ, क्रीतवत्यः, तादृशानि पदानि वयं पठितवन्तः. अत्र यथा भगिनी उक्तवती, क्रीणाति इति वर्तमानकालरूपं. तत्र क्री धातुः अस्ति, तस् गणस्य नाम अस्ति. संस्कृतभाषायां दशगणाः सन्ति, दशधातुगणाः सन्ति, तेषु अन्यतमः क्रयादिगणः. क्रयादिगणः इति एकः गणः अस्ति, तस्मिन् गणे तत्र क्री धातुः स्थापितः. तत्र क्रयादिगणे, क्रियादिगणे अस्ति क्री धातुः. अत्र तस्य रूपमेव क्रीतवती. बालिका वदति, मम सखी अपि ह्यः ईदृशपाञ्चालिकाम् एव क्रीतवती, तस्याः मूल्यं तु केवलं दशरूप्यकाणि एव. अधुना सा बालिका सम्यक् रीत्या किं कुर्वती अस्ति? बार्गेन् कुर्वती अस्ति. सा किं वदति? तस्याः मूल्यं दशरूप्यकाणि एव इति सा वदति. तदा आपणिकः किं वदति? वदतु भगिनि.
प्रायः सा पाञ्चालिका ईदृशपाञ्चालिका न स्यात्.
सः वदति, यदि सा पाञ्चालिका तस्याः मूल्यं केवलं दशरूप्यकाणि इति भवती वदति चेत् सा पाञ्चालिका भिन्ना, एषा पाञ्चालिका भिन्ना इति अहं चिन्तयामि. तदा सः वदति, प्रायः सा पाञ्चालिका ईदृशपाञ्चालिका न स्यात्. अत्र पश्यन्तु, स्यात् इति पदमस्ति. कोऽपि वदति वा स्यात् इति पदं किम् तस्य रूपं किं कोऽपि जानाति चेत्? अरुणा भगिनी किञ्चित् वदतु अन्येषां कृते.
तस्याः
स्यात् स्यात् इति पदस्य रूपं
स्यात् विजलिङ्ग्.
उत्तमम्, उत्तमं भगिनी, धन्यवादः. भवती जानाति, परन्तु अन्येषां कृते किञ्चित् वदामः. अत्र स्यात् वयं साधारणतया अस्ति सन्ति वयं पठितवन्तः, किन्तु संस्कृतभाषायां दशलकाराः सन्ति. दशलकाराः इदानीं पर्यन्तं वयं केवलं लट्लकारस्य विषये, इत्युक्ते वर्तमानकालार्थे, लोट्लकारः आज्ञार्थे अथवा प्रार्थनार्थे, तावदेव वयं पठितवन्तः. किन्तु तेषु दशसु लकारेषु अन्यतमः विधिलिङ्गलकारः. विधिलिङ्गलकारः इत्युक्ते विध्यर्थे अथवा सम्भावनार्थे, तस्मिन् अर्थे विधिलिङ्गलकारस्य प्रयोगं कुर्मः. अत्र स्यात् इति पदं विधिलिङ्गलकाररूपं. भगिनी भवती जानाति चेत् नवरूपाणि वदतु किञ्चित् तत्र स्यात् इति पदस्य नवरूपाणि वदति वा?
क्षमताम्,
अहमेव वदामि. अत्र स्यात् इति पदं, स्यात् इति पदमस्ति, किन्तु स्यात् इति पदस्य नवरूपाणि साधारणतया तत्र क्रियापदस्य नवरूपाणि सन्ति. विधिलिङ्गलकाररूपाणि नवरूपाणि अहं वदामि भगिनि, अहं वदामि. अत्र साधारणतया वयं वर्तमानकालरूपाणि वयं पठितवन्तः, यथा पठति, पठतः, पठन्ति, तादृशरीत्या तत्र नवरूपाणि सन्ति. किन्तु अत्र विधिलिङ्गलकारस्य कृते अपि नवरूपाणि सन्ति. रूपाणि कानि इत्युक्ते स्यात्, स्यातां, स्युः, स्याः, स्यातं, स्यात, स्याम, स्याव, स्याम, तादृशरूपाणि नवरूपाणि भवन्ति. अत्र विधिलिङ्गलकाररूपाणि नवरूपाणि. अत्र स्यात् इति दत्तमस्ति. स्यात् किमर्थम्? एकवचन प्रथमपुरुष एकवचनरूपं स्यात्. सः आपणिकः वदति पाञ्चालिका, सा पाञ्चालिका, ईदृशपाञ्चालिका न स्यात्. इट् मे नाट् बि द सेम् वन् दट् यु आर् सेयिङ्ग्, दट् यु आर् मेन्शनिङ्ग्. वाट् एवर् यु आर् मेन्शनिङ्ग् मे नाट् बि द सेम् डाल् एस् दिस् वन्. अत्र पाञ्चालिका इत्युक्ते किं भगिनि वदतु, लक्ष्मी भगिनी?
डाल्,
डाल्, डाल्. उत्तमम्, उत्तमम्. अत्र भवती यदुक्तवती सा पाञ्चालिका ईदृशपाञ्चालिका न स्यात्, मे नाट् बि लैक् दिस् वन्, दट्स् वै शी गाट् इट् फर् $10 ओन्लि. तथा आपणिकः वदति. तदा रामात् किम् उत्तरं वदति, वदतु. अत्र पठतु एकं वा तत्र वाक्यम्.
ईदृशपाञ्चालिका एव भोः, अहं सम्यक् जानामि.
उत्तमं. सा बालिका बहु चतुरा बालिका, शी इस् वेरि इण्टेलिजेण्ट्. सा किं वदति, ईदृशपाञ्चालिका एव भोः, अहं सम्यक् जानामि. इत्युक्ते सा बालिका निश्चितरूपेण, निर्धारितरूपेण सा वदति, ईदृशपाञ्चालिका एव मम सखी क्रीतवती ह्यः, अहं सम्यक् जानामि. तदा आपणिकः वदति तर्हि 15 रूप्यकाणि ददातु. पञ्चदश वदतु भगिनि, इत्युक्ते किं?
15.
उत्तमं. सः अत्र सा बालिका सम्यक् रीत्या मूल्यचर्चां कृतवती, हि बार्गेन्ड् वेल्. सा वदति तर्हि 15. वदतु महोदय.
एकं प्रश्नम् अस्ति, ऐ हेव् अ क्वश्चन्.
वदतु. वदतु.
स्यात् स्यात् आल्सो हेज़् अ नेगेटिव् इन् इट् मे नाट् यू सेङ्ग् इस् इट् मे और् मे नाट् और् बोत्.
अत्र पश्यतु वाक्ये किं दत्तमस्ति, पाञ्चालिका न स्यात्
Na-syat. So it is na is in the not is in the na, and siyat by itself by itself siyat ka artha kevalam artha kaha
siyat siyat it chukte it may not maybe sambhavana arthe
okay
maybe na atra नकारात्मक अर्थे दत्तमस्ति न स्यात् विधिलिङ्गलकारः अत्र विधिलिङ्गलकाररूपमस्ति स्यात् किन्तु विधिलिङ्गलकारः सम्भावनार्थे अथवा विध्यर्थे तस्य उपयोगं कुर्मः
पासिबिलिटि भूयात् लैक् भूयात् वुड् बि सिमिलर् टु स्यात् भूयात् लैक् भू धातु इन् विधिलिङ्ग
भू धातोः रूपम्
would be bhuyat, is that right?
Bhuyat, bhuyat. Kru dhatoh rupam kuryat.
Kuryat, okay.
Atra syat iti dattamasti. Ichukte atra sambhavanarthe. Tatra vidhiling rupam vidhyarthe apita sambhavanarthe bhavati. Kintu atra asmin vakye kevalam sambhavanarthe. Probability or possibility. इति अर्थे विद्यर्थे इत्युक्ते इट्स् युवर् ड्यूटि. तादृश अर्थः अत्र नास्ति. अत्र केवलं सम्भावनार्थे एव विधिलिङ्गरूपं प्रयुक्तमस्ति. उत्तमम्. अत्र इतोपि किमस्ति, ईदृशपाञ्चालिका एव भोः अहं सम्यक् जानामि. तदा आपणिकः पञ्चदशरूप्यकाणि ददातु अत्र ददातु यत्र यदा कदापि दाधातुः अस्ति चेत् मह्यं ददातु. कस्मै ददाति सा बालिका वदतु भगिनि. अत्र पञ्चदशरूप्यकाणि कस्मै ददाति रमा?
आपणिकाय.
उत्तमम्. आपणिकाय ददाति. आपणिकाय ददाति. तत्र दाधातुः रूपमस्ति चेत् तत्र चतुर्थीविभक्तेः उपयोगं कुर्मः. बालिका आपणिकाय पञ्चदशरूप्यकाणि ददाति वा? न, सा न ददाति. सा किम् इतोपि किं वदति?
पञ्चदशरूप्यकाणि अधिकानि, अहं तु दशरूप्यकाणि ददामि.
उत्तमम्. इत्युक्ते सा न इष्टवती. इत्युक्ते अत्र पञ्चदशरूप्यकाणि अधिकानि, तदर्थम् अहं न ददामि, केवलं दशरूप्यकाणि एव ददामि इति सा निश्चितरूपेण उक्तवती. तदा आपणिकः भवतु पाञ्चालिकां स्वीकरोतु इति सः वदति. इत्युक्ते अत्र आपणिकः अन्ततो गत्वा अङ्गीकृतवान्. यदा सा दशरूप्यकाणि दातुमिच्छति तदा सः अङ्गीकृत्य पाञ्चालिकां दत्तवान् इति अत्र सम्भाषणं. किन्तु अत्र पश्यन्तु पदानि रक्तवर्णैः लिखितानि पदानि सन्ति. ईदृश, कीदृश, तादृश एतानि पदानि सन्ति. सम्भाषणस्य अवगमनेन वयं सुलभतया अवगन्तुं शक्नुमः अत्र. उत्तमं भगिनि, धन्यवादः. अधुना अत्र उमाशङ्करमहोदय भवान् पठतु, अग्रे किमस्ति? विशेषसूचना अस्ति, एकवारं
पठसूचना. ईदृश, ईदृश स्यूतक, ईदृशी गति, ईदृशां पुस्तकम्.
अत्र भवान् किम् अवगतवान्, पठितवान्? अत्र त्रीणि बहु लघुवाक्यानि सन्ति. तत्र
लिङ्गम् इट् चेञ्जस् ईदृश
उत्तमम् अत्र स्यूतः किं लिङ्गं
स्यूतः पुल्लिङ्गं
पुल्लिङ्गं घटी
घटी घटी इस् स्त्रीलिङ्गं
स्त्रीलिङ्गं पुस्तकं
पुस्तकं नपुंसकलिङ्गम्
इत्युक्ते अत्र ईदृश इति पदं विशेषणत्वेन उपयोगं कुर्मः चेत् तत्र विशेष्यस्य रूपं स्वीकरोति अत्र विशेष्यम् इत्युक्ते स्यूतः घटी विशेष्यं पुस्तकं विशेष्यं विशेषणं सर्वदा विशेष्यस्य लिङ्गं वचनं विभक्तिं स्वीकरोति अतः ईदृशः स्यूतः ईदृशी घटी ईदृशं पुस्तकम् इति लिखितमस्ति अत्र अहं प्रश्नः अस्ति वा
भगिनी प्रश्ने वदति पुस्तके सम्भाषणे पाञ्चालिका स्त्रीलिङ्गशब्दः किमं ते लिखितवती ईदृशा एव ईदृशा पाञ्चालिका न
अत्र तत्र विशेषणं न विशेषणत्वेन न प्रयुक्तमस्ति तत्र अव्ययम् अव्ययरूपेण प्रयुक्तमस्ति तदर्थमेव तत्र ईदृश ईदृश इति लिखितमस्ति किन्तु अत्र विशेषणं यदि तस्य पदस्य उपयोगं कथं कुर्मः इत्यस्य आधारेण एव तस्य रूपं भवति यथा भगिनी उक्तवती अत्र तत्र विशेषणं नास्ति तत्र अव्ययम् अव्ययम् इति कृत्वा तत्र केवलम् ईदृश एव लिखितमस्ति अहं कानिचन वाक्यानि वदामि सर्वे शृण्वन्तु अत्र रामायणम् इति वयं रामायणम् इति पुस्तकं वयं जानीमः रामायणं कीदृशं पुस्तकं भगिनी अरुणा भगिनी भवती एव वदतु रामायणं कीदृशं पुस्तकम्
रामायणं काव्यं पुस्तकं काव्यपुस्तकं
रामायणं रामायणम् इति काव्यम् उत्तमं पुस्तकम्
उत्तमं
अपि च रामायणं कीदृशं पुस्तकम् उत्तमं पुस्तकम् ईदृशं पुस्तकम् अन्यत् अस्ति वा रामायणम् इव तादृशं पुस्तकम् अन्यत् पुस्तकमस्ति वा
नास्ति
नास्ति ईदृशं पुस्तकम् ईदृशं पुस्तकम् अन्यत् पुस्तकं नास्ति तादृशं रामायणम् इव तादृशं पुस्तकम् अन्यत् पुस्तकम् एव नास्ति अपि च यादृशं पुस्तकम् अस्माभिः पठनीयं तादृशं पुस्तकम् एव रामायणम् पश्यन्तु अत्र ईदृश तादृश कीदृश अपि च यादृश इति पदमपि अस्ति तस्य कृते यादृशं पुस्तकम् अस्माभिः पठनीयं तादृशं पुस्तकम् एव रामायणम् अत्र तथा ईदृश तादृश एतानि पदानि विशेषणानि इति कृत्वा तत्र त्रिषु लिङ्गेषु तस्य रूपाणि भवन्ति अधुना अत्र अहम् अधुना किञ्चित् अभ्यासं कुर्मः अत्र उमाशङ्करमहोदय भवान् वदतु तत्र फलम् इति वदामि चेत् तत्र ईदृश इति पदस्य उपयोगं कृत्वा वदतु फलम्
ईदृशं फलम्
एकं वाक्यं रचयतु
ईदृशं फलं ददातु
ईदृशं फलं ददातु गृहम् इति वदामश्चेत्
गृहम् ईदृशं गृहम्
एकं लघुवाक्यं रचयतु
ईदृशं गृहं
वदतु
ईदृशं गृहं मार्गे अस्ति
ईदृशं गृहं मार्गे अस्ति तथा एव लेखनी लेखनी अथवा अङ्कनी इति पदं योजयित्वा एकं वाक्यं वदतु ईदृश वा तादृश वा
ईदृशी लेखनी कपाटिकायाम् अस्ति
ईदृशी लेखनी कपाटिकायाम् अस्ति तथा एव माला माला इत्यस्मिन् विषये वदतु
ईदृशी माला आपणिका सेल्लिङ्ग्
ईदृशी माला आपणे अस्ति
आपणे अस्ति ओके आपणे अस्ति ओके
अस्तु अनन्तरं वृक्षः अथवा गजः पुंलिङ्ग यद् पुंलिङ्गपदं स्वीकृत्य वदतु एकं वाक्यं
वृक्षः ईदृशवृक्षः सरोवरस्य समीपे अस्ति
ईदृशः वृक्षः सरोवरस्य समीपे अस्ति उत्तमं तादृशरीत्या एव वक्तव्यं यदि विशेषणरूपेण वदामश्चेत् अत्र 28.2 भागे अत्र इतोपि किं लिखितमस्ति एकवारं पठतु महोदय
पूर्वतनसम्भाषणे पाञ्चालिका शब्दस्य स्थाने लेखनी इति शब्दं प्रयोजित्वा सम्भाषणं पुनः लिखतु
अत्र पूर्वतनसम्भाषणे तत्र विभक्तिः का
तृतीया विभक्ति सारी सप्तमी विभक्ति
उत्तमम् उत्तमं पाञ्चालिकाशब्दस्य स्थाने तत्र शब्दस्य विभक्तिः का
सप्तस्य षष्टिविभक्ति
प्रथमान्तं रूपं किं
शब्दं
शब्दः
शब्दः ओके
शब्दः स्थाने इति पदमस्ति तस्य रूपं किं
स्थाने सप्तमी
सप्तमी उत्तमम् अपि च लेखनी इति शब्दं योजयित्वा पश्यतु अत्र शब्दं तस्य रूपं किं
शब्दं द्वितीया विभक्ति
किमर्थं द्वितीया विभक्ति अत्र
शब्दः शब्दम्
उत्तमम् उत्तमं तदेव शब्दः इति प्रथमान्तरूपम् अत्र द्वितीयान्तं रूपम् अस्ति किमर्थम् इत्युक्ते अत्र योजयित्वा इति पदं क्त्वा प्रत्ययान्तरूपं वयं पठितवन्तः पठित्वा गत्वा तादृशानुरूपाणि वयं पूर्वमेव पठितवन्तः अत्र योजयित्वा इति क्त्वा प्रत्ययान्तरूपम् अस्ति इति कृत्वा यत्र कुत्रापि क्त्वा प्रत्ययान्तरूपम् अस्ति चेत् सकर्मकधातुतः निर्मितं रूपम् अस्ति चेत् तत्रापि कर्मपदं सम्भवति अत्र शब्दम् इति पदं कर्मपदम् योजयित्वा सम्भाषणं पुनः लिखतु इति दत्तमस्ति सूचनाम् अवगतवान् वा महोदय उत्तमम् अत्र अस्माकं कृते वाक्यद्वयं लिखितमस्ति किन्तु भवन्तः सर्वे गृहपाठरूपेण एतत् सम्भाषणं लिखन्तु तत्र षड्वाक्यानि षट् वा कति वाक्यानि अत्र षट् वाक्यानि लेखनीयानि वाक्यद्वयम् अस्माकं कृते पूर्वमेव लिखितमस्ति अत्र केवलम् अत्र लेखनी इति पदं योजयित्वा पाञ्चालिका इत्यस्य शब्दस्य स्थाने लेखनी इति पदं योजयित्वा एतत् सम्भाषणं पुनः लेखनीयम् अस्माभिः गृहपाठरूपेण कुर्वन्तु उत्तमम् अग्रिमे पुटे किमस्ति इति एकवारं पश्येम अत्र धन्यवादः महोदय अत्र अरुणा भगिनी भवती पठति वा अग्रिमे पुटे किमस्ति
विरुद्धाप्तकाः शब्दाः शृणोति वा?
अत्र विरुद्धार्थकाः शब्दाः इत्युक्ते किम् इत्युक्ते किम्?
आपोसिट्.
उत्तमम्. आपोसिट् वर्ड्स्. अत्र पश्यन्तु, शब्दाः सन्ति, परन्तु शब्दाः कीदृशाः शब्दाः? विरुद्धार्थकाः. अत्र विरुद्धार्थकाः इति तत्र किमस्ति इत्युक्ते विशेषणपूर्वपदकर्मधारयसमासः. शब्दाः कीदृशाः? विरुद्धार्थकाः. अत्र विशेषणपूर्वपदकर्मधारयसमासः अस्ति, किन्तु पदं शब्दद्वयमपि बहुवचने अस्ति. शब्दाः सन्ति. पठतु, तत्र पदानि पठतु.
उन्नत विरुद्धार्थकशब्दः वामन, पुरातन, नूतन, बृहत्, लघु, दीर्घ, अश्व, स्थूल, कुश, अधिकं, किञ्चित्.
उत्तमम्. अत्र षट् पदानि सन्ति, यथा भगिनी उक्तवती, एते विरुद्धार्थकशब्दाः. देर् आल् आपोसिट् वर्ड्स्. उन्नत, तस्य रूपं विरुद्धार्थकशब्दः वामन, पुरातन, नूतन, बृहत्, लघु, दीर्घ, ह्रस्व, स्थूल, कृश, अधिकं, किञ्चित्. अत्र एते शब्दाः विशेषणानि सन्ति, इत्युक्ते विशेषणवाचकशब्दाः. तदर्थम् एते शब्दाः त्रिषु लिङ्गेषु तेषां रूपाणि भवन्ति. भगिनी एकवारं वदतु, अत्र उन्नतशब्दः, तस्य विषये, तस्य रूपाणि त्रिषु लिङ्गेषु वदतु.
उन्नतः, उन्नता, उन्नतम्.
तथा एव अन्येषां कृते अपि वदतु.
वामनः, वामना, वामनम्. पुरातन, पुरातना, पुरातन, पुरातना, पुरातनम्. नूतन, नूतना, नूतनम्. बृहत्, बृहति, बृहत्,
बृहत्. अत्र भगिनी, अत्र एकवारम्, अत्र सर्वे एकवारं शृण्वन्तु. बृहत् शब्दः किञ्चित् भिन्नः. तस्य रूपाणि त्रिषु लिङ्गेषु कथं भवन्ति इत्युक्ते, पुंलिङ्गे बृहान्, बृहान्, बृहान् ग्रन्थः. ग्रन्थः कीदृशः? बृहान् ग्रन्थः. स्त्रीलिङ्गे बृहती इति भवति, नपुंसकलिङ्गे बृहत् इति भवति. कथं वक्तव्यं? बृहत् भवनं, बृहान् ग्रन्थः, बृहती, किं वदामः? बृहती, किमपि पदं स्वीकृत्य, स्त्रीलिङ्गपदं स्वीकर्तव्यं. बृहती
पाञ्चालिका,
बृहती, बृहती पाञ्चालिका. तथा अत्र पश्यन्तु, उन्नतशब्दस्य रूपाणि केवलम् उन्नतम्, उन्नता, उन्नतः भवति, भवन्ति, किन्तु बृहत् शब्दस्य रूपाणि किञ्चित् भिन्नानि. लघुशब्दस्य रूपाणि वदतु भगिनि.
अहं न जानामि.
अत्र पश्यन्तु, लघुशब्दस्य रूपाणि अपि किञ्चित् भिन्नानि भवन्ति. अत्र नपुंसकलिङ्गे वदामश्चेत् लघु, पुंलिङ्गे वदामश्चेत् लघुः, किन्तु स्त्रीलिङ्गे वदामश्चेत् लघ्वी, लघ्वी, लघ्वी महिला, लघु, लघ्वी महिला, लघु, किं वदामः, लघु छुरिका, लघु छुरिका अथवा लघु लेखनी लघ्वी लघ्वी लेखनी क्षम्यतां लघ्वी लेखनी इति भवति लघु लघु पुस्तकं नपुंसकलिङ्गे तादृशरूपाणि भवन्ति दीर्घशब्दस्य कृते वदतु
लघुवाक्यं
दीर्घशब्दस्य कृते
दीर्घः दीर्घ दीर्घम् अश्वः अश्वा अश्वं स्थूलः स्थूला स्थूलं कृष कृशा कृशम्
अधिकम्
अधिकः अधिका अधिकम्
उत्तमं
किञ्चित् किम् अहं न जानामि किञ्चित्
अत्र पश्यन्तु किञ्चित् इति पदम् अव्ययमपि अस्ति किन्तु विशेषणत्वेन उपयोगं कुर्मः चेत् तत्र किञ्चित् इति नपुंसकलिङ्गे भवति पुंलिङ्गे कश्चित् स्त्रीलिङ्गे काचित् इति भवन्ति रूपाणि किञ्चित् अत्र किञ्चित् किन्तु तत्र अत्र अस्मिन् अवसरे तत्र किञ्चित् इति अधिकम् इति पदस्य विरुद्धार्थकपदं तदर्थम् अत्र केवलं अव्ययम् इति एव भवति परन्तु किञ्चित् काचित् कश्चित् इति रूपाणि त्रिषु लिङ्गेषु रूपाणि भवन्ति उत्तमं धन्यवादः भगिनी इत्युक्ते एतानि कति पदानि सन्ति द्वादशपदानि सन्ति तत्र एतानि पदानि विशेषणानि अपि च विरुद्धार्थकशब्दाः एते इत्युक्ते एकमेकं पदं स्वीकृत्य वयं वाक्यरचनां कर्तुम् इच्छामश्चेत् तत्र षट्त्रिंशत् वाक्यानि रचयितुं शक्नुमः किमर्थं चेत् तत्र द्वादशपदानि सन्ति त्रिषु लिङ्गेषु तेषां रूपाणि भवन्ति त्रिषु लिङ्गेषु वक्तुमिच्छामश्चेत् 12 × 3 = 36 वि केन् क्रियेट् 36 सेण्टेन्सस् यूसिङ्ग् दीस् 12 वर्ड्स् षट्त्रिंशत् वाक्यानि रचयितुं शक्नुमः उत्तमं धन्यवादः भगिनि अनन्तरम् अत्र इतोपि के के सन्ति अत्र जान् महोदय भवान् पठितुम् इच्छति वा
नीचे नयनं दृष्टम् अस्ति अस्मि
अस्तु चिन्ता मास्तु चिन्ता मास्तु अत्र भावना भगिनी भवती पठितुम् इच्छति वा 703810
या
भावना
या
भवती पठितुम् इच्छति वा पठतु अभ्यासपुस्तके तत्र उपरि केचन वा अभ्यासपुस्तके एव
पेज् नम्बर्
अत्र इदानीं पर्यन्तं वयं पठन्तः स्मः अत्र पञ्चषष्टिः इत्युक्ते 65 पञ्चषष्टिः शीघ्रं
29.1
अस्तु भगिनि पार्श्वे चिन्ता मास्तु नो चेत् अन्य कः पठति साईकृष्णमहोदय भवान् एव पठतु अत्र
अस्तु भगिनि उपरि केचन वृद्धार्थकाः शब्दाः सन्ति अधस्थनवाक्येषु स्थितानि रिक्तस्थलानि उचितैः वृद्धार्थकशब्दैः पूरयतु
अत्र भवान् सूचनां पठितवान् अत्र उपरि के सन्ति केचन विरुद्धार्थकाः शब्दाः सन्ति इति वयं पठितवन्तः. अधस्तनवाक्येषु स्थितानि रिक्तस्थलानि, अत्र अधस्तनवाक्य अधभागे अत्र कानिचन वाक्यानि सन्ति, तेषु रिक्तस्थलानि सन्ति. अत्र एकवारं वदतु महोदय, उचितैः विरुद्धार्थकशब्दैः तत्र विभक्तिः का?
चतुर्थी
न महोदय. उमाशङ्कर महोदय वदतु.
This is a seventh case. Saptami bhavachanam.
अत्र पश्यन्तु, अधस्तनवाक्येषु इति सप्तमी रूपं, किन्तु अहं किं पृष्टवती? उचितैः विरुद्धार्थकशब्दैः, तत्र पदद्वयमस्ति. उचितैः तस्य वदतु. उत्तमं, तृतीया विभक्तिः, तृतीया बहुवचनम्. अत्र उचितैः विरुद्धार्थकशब्दैः, तयोर्मध्ये विशेषणविशेष्यभावः अस्ति, किन्तु तस्य रूपं तृतीया बहुवचनरूपं दत्तमस्ति. अत्र वाक्यानि दत्तानि केन केन अथवा कैः शब्दैः पूरणीयानि? कैः शब्दैः, वित् वाट् वर्ड्स्? उपरितन विरुद्धार्थकशब्दैः अत्र रिक्तस्थानानि पूरणीयानि अथवा रिक्तस्थलानि पूरयामः. अत्र पूरयतु इति उक्तमस्ति लोट्लकाररूपं. वाक्यानि पठतु.
नालिकेरवृक्षः अस्ति.
अत्र चित्रं पश्यतु. चित्रं पश्यामश्चेत् तत्र वृक्षद्वयमस्ति, एकः
लघु
वदतु. कथं वक्तव्यम् अत्र? नारिकेलवृक्षः कीदृशः?
बृहत् अस्ति.
बृहत् वदतु महोदय. ज्ञान महोदय, उन्नतः नारिकेलवृक्षः उन्नतः. बृहत् अपि वक्तुं शक्नुमः, किन्तु बृहत् इति न वदामः. बृहत् इत्युक्ते लार्ज्, किन्तु उन्नतः इत्युक्ते टाल्. तत्र भेदः अस्ति. टाल् इत्युक्ते उन्नतः, किन्तु लार्ज् इति वदामश्चेत् ह्यूज्, इति वदामश्चेत् बृहत्. नारिकेलवृक्षः उन्नतः.
कष्टम्
सः वदति. अत्र पठतु महोदय, साईकृष्णमहोदय.
जम्बीरवृक्षः वामनः अस्ति.
वामनः, उत्तमम्. अत्र पश्यन्तु, नारिकेल अत्र मुद्रणदोषः अस्ति इति भाति. नारिकेलवृक्षः इति वदामः. नारिकेलवृक्षस्य अन्यनाम अस्ति संवित् फल. नारिकेलफलं तस्य अन्यनाम अस्ति संवित् फलम्. संवित् फलम् इति अन्यनाम अस्ति. अत्र जम्बीरवृक्षः इति दत्तमस्ति. जम्बीरम् इत्युक्ते किम्?
जम्बु.
जम्बीरवृक्षः इत्युक्ते लेमन्. संस्कृतभाषायां निम्बूफलम् इति वदामः. जम्बीरफलम् इत्युक्ते निम्बूफलम्. अत्र चित्रे वृक्षद्वयमस्ति, किन्तु एकः तु उन्नतः, अन्यः वामनः. अग्रिमं पठतु महोदय.
आदण्डः दीर्घः
अस्ति. अत्र दण्डः इत्युक्ते भवान् किम् अवगतवान्?
स्टिक्.
अत्र दण्डद्वयमस्ति, एकः तु दीर्घः, अन्यः आदण्डः. अत्र अत्र वयं न द्रष्टुं शक्नुमः, किन्तु अत्र आ इति लिखितमस्ति इति भाति, दण्डे ब इति अपि लिखितमस्ति इति भाति. दो वि आर् नाट् एबल् टु सी, अत्र आ इति अक्षरं लिखितमस्ति इति भाति. बादण्डः कीदृशः?
बादण्डः ह्रस्व
ह्रस्वः
ह्रस्वः.
अत्र दीर्घ दीर्घशब्दस्य दीर्घशब्दस्य विरुद्धार्थकपदम्
ह्रस्वः.
दीर्घशब्दस्य विरुद्धार्थकपदं ह्रस्वः. उत्तमम्. अत्र ह्रस्वः. अग्रिमं करोतु. ह्रस्वः अत्र अत्र कथं वक्तव्यं, कथं वक्तव्यम् इत्युक्ते ह्र हकारः रकारः ह्रस्वः ह्रस्वः. अत्र हकारे अनन्तरं हकारस्य अनन्तरं रेफः रकारः अस्ति. ह्र ह्रस्वः इति अस्ति. इत्युक्ते तत्र दीर्घशब्दस्य विरुद्धार्थकपदमस्ति ह्रस्वः. अग्रिमं करोतु.
यूतकं यूतकं
पश्यतु कीदृशमस्ति युतकं. नूतनं नास्ति इति भाति.
नूतनं नास्ति,
नूतनं नास्ति इति भाति.
पुरातनं
पुरातनं
युतकं पुरातनम् अस्ति.
युतकं पुरातनम् अस्ति. पुस्तकं कीदृशमस्ति?
पुस्तकं नूतनम् अस्ति.
युतकम् इत्युक्ते किं?
शर्ट्
शर्ट्. अत्र यदि वयं युतकं पश्यामश्चेत् अत्र नूतनम् एव नास्ति, तत्र पुरातनं युतकम् इव दृश्यते अत्र. अतः युतकं पुरातनं, पुस्तकं तु नूतनं. विरुद्धार्थकशब्दैः वाक्यानि पूरणीयानि. अग्रिमं करोतु.
गोविन्दः गोविन्दः
प्रथमः गोविन्दः. अत्र पुरुषद्वयमस्ति, पुरुषद्वयमस्ति, द्वौ पुरुषौ स्तः. अत्र प्रथमः अस्ति, तस्य नाम गोविन्दः. द्वितीयस्य नाम समीरः. गोविन्दः कीदृशः, कथं दृश्यते सः? स्थूलः, बृहत् इति न वदामः.
स्थूलः
गोविन्द गोविन्दः स्थूलः बालकः.
स्थूलः बालकः.
उत्तमं. समीरः
स्थूलबालकः भवति वा स्थूलः बालकः?
तत्रापि स्थूलः बालकः इति वदामश्चेत् पृथक् पृथक् रीत्या वक्तुमिच्छामश्चेत् स्थूलः बालकः इति भवति. यदि समासं कृत्वा वक्तुमिच्छामश्चेत् स्थूलबालकः इति अपि समीचीनम्. If you want to make it as a compound word, that is, samastapadam krutva vadamaschet, sthula balakaha. Kintu, vayam prarambhika stariyaha chhatraha. Ataha, samasam na kurmaha atra. Kevalam pradhaktaya. Separately, yasta prayogam krutva. Yasta prayogaha ichukte, separately, without making a compound word, we are supposed to learn at this level. अतः अत्र स्थूलः बालकः कः? स्थूलः बालकः कः अत्र?
स्थूलः बालकः गोविन्दः.
समीरः कीदृशः?
समीरः कृशः बालकः.
कृशः स्थूल इति पदस्य कृशः, कृशः इत्युक्ते आङ्ग्लभाषायां किं वदामः? कृशः कोऽपि वदति वा अत्र? कृशः इत्युक्ते स्लिम् अथवा लीन्. अग्रिमं पठतु.
समीरः कृशः बालकः. विधानसौधं एतत् बृहत् विधानसौधं बृहत् भवनम्.
उत्तमम्. अत्र एकं भवनं दृश्यते चित्रे. एकं भवनमस्ति अत्र. अन्यत् गृहमपि अस्ति.
लघुगृहं
अत्र
सन्दीपस्य गृहं लघुगृहं विधानसौधं
तदेव
लघु
अत्र. न वदामः. पश्यतु महोदय, अत्र विधानसौधम् इति एकं भवनं. तद् भवनं कीदृशमस्ति? बृहत् भवनम्. अत्र बृहत् इति पदं नपुंसकलिङ्गे बृहत् एव वदामः, किन्तु पुंलिङ्गे वदामश्चेत् बृहान्, स्त्रीलिङ्गे वदामश्चेत् बृहती इति वदामः. अत्र एकं भवनं बहु बृहत् अस्ति, अन्यत् भवनं लघुगृहम्. अत्र अन्यत् गृहं लघु इत्युक्ते स्माल् कम्पेरेटिव्लि. तस्य अपेक्षया अन्यभवनस्य अपेक्षया तत् गृहं लघु अस्ति, कम्पेरेटिव्लि लघुगृहं. कस्य गृहं? सन्दीपस्य गृहं लघुगृहम्. उत्तमम्. अग्रिमं करोतु. अन्तिमं न, अत्र
द्रोण्यां जलमस्ति. द्रोण्याम् अधिकं जलम् अस्ति. चषके किञ्चित् जलम् अस्ति, किञ्चित् क्षीरम् अस्ति.
अत्र द्रोण्याम् इति रूपं किम्?
द्रोण्यां षष्टि, नो सप्तमी.
प्रथमान्तं रूपं किम्?
द्रोणा.
कोऽपि अरुण भगिनी वदतु.
द्रोणी.
द्रोणी नदी शब्दवत्. द्रोणी, द्रोणी शब्दस्य सप्तम्यन्तं रूपं द्रोण्याम्. अत्र चषके, द्रोण्याम् अधिकं जलमस्ति, बृहत् अस्ति इति कारणतः. किन्तु तत्र चषकः अस्ति. चषकः इत्युक्ते ग्लास् अथवा कप्. चषकः, अत्र चषके रूपं किम्?
सप्तमी.
सप्तमी इत्युक्ते तत्र द्वयोः तुलनां कुर्मः चेत् तत्र द्रोण्याम् अधिकं जलमस्ति, किन्तु चषके तु किञ्चिदेव क्षीरमस्ति. अत्र द्रोण्यां जलमस्ति, किन्तु चषके तु क्षीरमस्ति. अस्तु. इत्युक्ते इदानीं पर्यन्तं वयं कानिचन पदानि, विरुद्धार्थकशब्दानां विषये किञ्चित् वयम् अधीतवन्तः. अधुना वयं अल्लाउद्दीनस्य दीपः इति कथां पुनः एकवारं पठामः. गते सप्ताहे एव तत्र सम्भाषणं वयम् आरब्धवन्तः, परन्तु पूर्णतया वयं न समापितवन्तः. तत्र इतोपि किञ्चित् भागः अवशिष्टः अस्ति. अधुना वयं तत् सम्भाषणं पठित्वा तत्र तस्यां कथायां, तत्र केवलं यद्यपि तत्र सम्भाषणमेव लिखितमस्ति, किन्तु तस्यां कथायां तत्र तत्त्वं किं, तत्र सम्भाषणस्य नीतिः का इति एकवारं पश्याम. तत्र सम्भाषणं सर्वे एकवारं पश्यन्तु. अल्लाउद्दीनस्य दीपः इति सम्भाषणम् अधुना समापयामः. सर्वेषां पार्श्वे अस्ति वा तत् सम्भाषणस्य करपत्रं?
मम पार्श्वे नास्ति.
ह्यः अहं प्रेषितवती भगिनी. लक्ष्मी भगिनी, भवत्याः पार्श्वे अस्ति वा?
अस्ति अस्ति भगिनि.
अस्तु, अत्र प्रथमतया अहं सारांशरूपेण किञ्चित् वदामि. तत्र किम् अभवत् इदानीं पर्यन्तं? गतसप्ताहे एव वयम् आरब्धवन्तः एतत् सम्भाषणं, किन्तु तत्र सारांशं वदामि अधुना. तत्र एक क्रीडाङ्गणमस्ति. क्रीडाङ्गणे केचन बालकाः क्रीडन्तः सन्ति. तदा ते बालकाः एकं दीपं पश्यन्ति. सः दीपः एव अल्लाउद्दीनस्य दीपः. सः तत्र दीपः प्रथमतया किं करोति? उपरि आनेतुं विज्ञापनं करोति. माम् उपरि उन्नयन्तु, भवन्तः सर्वे माम् उन्नयन्तु इति सः दीपः विज्ञापनं करोति. तदा ते बालकाः सर्वे तं दीपम् उन्नयन्ति. उन्नयन्ति इत्युक्ते उपरि आनयन्ति. तदा दीपः वदति, सर्वे वदन्तु भवन्तः किम् इच्छन्ति, भवतां इच्छां पूरयामि, भवन्तः किम् इच्छन्ति इति सः दीपः पृच्छति. तदा एकः बालकः वदति, मम विद्यालये बहु गणितकार्यमस्ति, अपि च बहु गृहकार्यमस्ति, बहु समाजविज्ञानकार्यमस्ति, तदर्थं भवान् मम कृते तं गृहकार्यं करोतु इति एकः बालकः तं पृच्छति. तदनन्तरं अन्यः बालकः वदति, मम कृते चाकलेहान् आनयतु, अथवा मधुरखाद्यानि खादितुमिच्छामि, अतः कानिचन मधुरखाद्यानि मम कृते आनयतु इति अन्यः बालकः वदति. तदा दीपः अङ्गीकरोति. अङ्गीकृत्य इतोपि दीपः किं वदति? भवन्तः सर्वे सर्वं कागदे लिखित्वा ददातु, अहं केवलं क्षणार्धेन आनेतुं शक्नोमि, पृथक् पृथक्तया मा वदतु, सर्वम् एकस्मिन् कागदे लिखित्वा ददतु इति सः दीपः वदति. अधुना तत्र इतोपि किमस्ति इति एकवारं पश्येम. तावत्पर्यन्तम् एव वयं पठितवन्तः गते सप्ताहे. अत्र लक्ष्मीभगिनी भवती पठतु. अत्र चतुर्थः इति लिखितमस्ति. मम कृते किमपि मास्तु, तदारभ्य पठतु.
चतुर्थः, मम कृते किमपि मास्तु. अस्मद्देशस्य बहवः भागाः अतिवृष्ट्या क्षामेण वा ग्रस्ताः. बहवः दिने द्विवारं भोजनम् अपि न प्राप्नुवन्ति. केन्द्रसर्कारः राज्यसर्कारः च महान्तं प्रयत्नं कुर्वन् अस्ति. बहवः स्वयं सेवकाः सेवां कुर्वन्तः सन्ति. कृपया कष्टग्रस्तानां सहायतां करोतु भवान्.
इत्युक्ते अत्र इदानीं पर्यन्तं प्रथमः तत्र मम कृते गृहकार्यं करोतु इति प्रथमः छात्रः वदति. द्वितीयः वदति, मम कृते चाकलेहान् आनयतु इति वदति. अधुना चतुर्थः किं वदति? मम कृते किमपि मास्तु इति वदति. सः उत्तमः बालकः इति भाति. मम कृते किमपि मास्तु. अस्मद्देशस्य बहवः भागाः अतिवृष्ट्या क्षामेण वा ग्रस्ताः. अस्मद्देशः इत्युक्ते मम देशः, तत्र अस्मद्देशः इति समस्तपदमस्ति. अस्मद्देशे, अस्माकं देशे बहवः भागाः अतिवृष्ट्या. भगिनि जानाति वा अतिवृष्टिः इत्युक्ते किम्? कोऽपि वदतु.
हेवि रैन्.
हेवि रैन्, उत्तमम्. अतिवृष्ट्या, अत्र वृष्टिः इति पदं स्त्रीलिङ्गपदमस्ति, अतः तस्य तृतीयविभक्त्यन्तरूपम् अतिवृष्ट्या इति लिखितमस्ति. इत्युक्ते अस्माकं देशे बहवः भागाः अतिवृष्ट्या. वृष्टिः इत्युक्ते वर्षा, अधिका वर्षा अस्ति इति कारणतः क्षामेण, क्षामः इत्युक्ते वृष्टिः एव नास्ति. बहुषु भागेषु अतिवृष्टिः वा अस्ति अथवा अनावृष्टिः. अनावृष्टिः इत्युक्ते क्षामः, वृष्टिः एव नास्ति. तादृशरीत्या बहवः भागाः ग्रस्ताः. अत्र ग्रस्ताः इति पदमस्ति. ग्रस्ताः इत्युक्ते बाधिताः अथवा पीडिताः. बहवः भागाः पीडिताः सन्ति. केन? क्षामेण वा अतिवृष्ट्या वा. तत्र संस्कृतभाषायां ग्रस् इति धातुः अस्ति. तस्य रूपमस्ति ग्रसति, लट्लकाररूपं ग्रसति. अत्र कथाप्रत्ययान्तरूपं दत्तमस्ति. ग्रस्ताः, ग्रस्ताः इत्युक्ते पीडिताः इति अर्थः, अथवा बाधिताः इति अर्थः. अपि च सः इतोपि किं वदति, बहवः दिने द्विवारं भोजनमपि न प्राप्नुवन्ति. अत्र पश्यन्तु, बहवः जनाः द्विवारं भोजनमपि न कुर्वन्ति. अत्र द्विवारं, अत्र एकवारं, द्विवारं, त्रिवारम्. अत्र वारम् इति वदामश्चेत् तत्र वासरः इति न अर्थः. अत्र किमर्थः, अर्थः कः इत्युक्ते एकवारम् इत्युक्ते वन्स्, द्विवारं ट्वैस्, त्रिवारं त्रैस्, तथा वदामः. बहवः जनाः द्विवारं भोजनमपि खादितुं न शक्नुवन्ति. अत्र प्राप्नुवन्ति इति रूपमस्ति. अरुणा भगिनी किञ्चित् वदतु, एकवचनरूपं किं तत्र?
क्षम्यताम्.
अत्र प्राप्नुवन्ति बहुवचनरूपं, किन्तु एकवचनं वदतु.
प्राप्नोति.
उत्तमं, सुन्दरं, सुन्दररीत्या उक्तवती. प्राप्नोति इति रूपम्. अत्र प्रा इति उपसर्गः अस्ति. आप् इति धातुः, तस्य लट्लकाररूपम् एकवचनरूपं प्राप्नोति, प्राप्नुतः, प्राप्नुवन्ति. अत्र बहवः जनाः भोजनमपि न प्राप्नुवन्ति. तदर्थं सर्वकारः, सर्वकारः किं कुर्वन्ति? केन्द्रसर्वकारः, राज्यसर्वकारः इत्युक्ते सेण्ट्रल् गवर्न्मेण्ट् अण्ड् स्टेट् गवर्न्मेण्ट् इति अर्थः. केन्द्रसर्वकारः, राज्यसर्वकारः च महान्तं प्रयत्नं कुर्वन् अस्ति. अत्र महान्तं प्रयत्नं, द्वितीयविभक्त्यन्तरूपाणि. तत्र प्रथमाविभक्तौ वदामश्चेत् महान् प्रयत्नः, महान् शब्दस्य द्वितीयान्तं रूपं महान्तं, महत् इति पदं तकारान्तपदम्. अतः अत्र द्वितीय एकवचनं दत्तमस्ति, कर्मपदम्. अत्र कोऽपि वदति वा अत्र कर्मपदं किमर्थम्? कोऽपि कुर्वन्, उत्तमं भगिनि, कुर्वन्. कुर्वन् इत्युक्ते अत्र कुर्वन् इति पदं शत्रप्रत्ययान्तरूपं, शत्रन्तरूपम् अस्ति इति कारणतः साधारणतया शत्रन्तरूपमस्ति चेदपि तत्र कर्मपदं सम्भवति. शत्रन्तरूपं किं, तस्मिन् विषये अग्रे गत्वा वयं पठिष्यामः. किन्तु अत्र शत्रन्तरूपमस्ति इति कारणतः कर्मपदं सम्भवति. महान्तं प्रयत्नं कुर्वन् अस्ति. कः कुर्वन् अस्ति? केन्द्रसर्वकारः अथवा राज्यसर्वकारः इत्युक्ते गवर्नमेण्ट्. गवर्नमेण्ट् इस् डूयिङ्ग् वाट् एवर् दे कुड्. परन्तु बहवः स्वयं सेवकाः सेवां कुर्वन्तः सन्ति. स्वयं सेवकाः इत्युक्ते वालण्टियर्स्. वालण्टियर् किं कुर्वन्तः सन्ति अत्रापि पश्यन्तु कुर्वन् इति शत्रन्तरूपं किन्तु कुर्वन् इति पदस्य बहुवचनरूपं कुर्वन्तः शत्रन्तरूपं हेस् बीन् डूयिङ्ग् आङ्ग्लभाषायां वदामः प्रेसेण्ट् कण्टिन्यूस् टेन्स् इति वदामः तदेव अत्र शत्रन्तरूपं कुर्वन् कुर्वन्तौ कुर्वन्तः प्रथमाविभक्ति एकवचनं द्विवचनं बहुवचनं कुर्वन् कुर्वन्तौ कुर्वन्तः तादृशरूपाणि भवन्ति स्वयं सेवकाः अपि किञ्चित् सेवां कुर्वन्तः सन्ति कस्मिन् विषये अतिवृष्टिः अथवा क्षामः अस्ति इति कारणतः ते यावत् शक्यं कार्यं कुर्वन्तः सन्ति कृपया अधुना चतुर्थः बालकः वदति सर्वे यावत् शक्यं कुर्वन्तः सन्ति किन्तु भवान् कष्टग्रस्तानां कृते किञ्चित् साहाय्यं करोतु इति विज्ञापनं कृतवान् सः बालकः उत्तमः इति भाति अतः कष्टग्रस्तानाम् इत्युक्ते कष्टपीडितानां कृते किञ्चित् साहाय्यं भवान् करोतु मम कृते किमपि न आवश्यकम् इति सः वदति उत्तमम् अनन्तरं किं लिखितमस्ति अत्र महोदय उमाशङ्करमहोदय भवान् पठतु अधुना
दीपक दयालुः दयालुः भवान् मगा मानवः भवतः विचारक अत्कृष्टः उत्कृष्टः साधु साधु भवतः का आशा
का आशा अत्र अधुना चतुर्थः यत् वदति तत् सर्वं दीपः शृणोति श्रुत्वा किं वदति भवान् महामानवः भवान् दयालुः अत्र पश्यन्तु महामानवः इति पदम् तत् पदं समस्तपदं तत्र विग्रहवाक्यं वदामश्चेत् महान् मानवः इति भवति तत्र विशेषणपूर्वपदकर्मधारयसमासः इति वदामः महान् मानवः महामानवः इति भवति भवान् महामानवः अपि च भवान् दयालुः दयालुः इत्युक्ते यस्मिन् दया अस्ति अथवा करुणा अस्ति अथवा कारुण्यमस्ति सः एव दयालुः अत्र दयालुः इति पदं तत्र आलुच् इति प्रत्ययः अस्ति तस्य नाम अस्ति आलुच् प्रत्ययः संस्कृतभाषायां बहवः प्रत्ययाः सन्ति किन्तु अत्र आलुच् प्रत्ययः अस्ति दयालुः इत्युक्ते यस्मिन् दया अस्ति अथवा करुणा अस्ति सः एव दयालुः तथा एव अन्यानि पदानि सन्ति कृपालुः क्रीडालुः दयालुः शयालुः तादृशानि पदानि अपि अन्यानि पदानि सन्ति भवतः विचारः तु उत्कृष्टः अत्र उत्कृष्टः इति पदमस्ति भवान् किम् अवगतवान् महोदय वदतु उत्कृष्टः उत्कृष्टः इत्युक्ते एक्सलेण्ट् इति अर्थः उत्तमं भवतः विचारः तु उत्तमः विचारः उत्कृष्टः अत्र उत् उपसर्गपूर्वकः कृष् धातुः अपि च क्तान्तरूपम् इति वदामः संस्कृतभाषायां शब्दव्युत्पत्तिशास्त्रम् इत्युक्ते तत्पदं कथं निष्पन्नं भवति इत्यस्य विषये चिन्तनं कुर्मः चेत् बहु सुन्दरं भवति आङ्ग्लभाषायाम् एटिमालजि आफ् वर्ड्स् इति वदामः तदेव संस्कृतभाषायां शब्दव्युत्पत्तिशास्त्रं पाणिनेः सूत्राणाम् आधारेण सर्वेषां पदानां निर्माणं कथं भवति इति वयम् अवगन्तुं शक्नुमः अत्र उत्कृष्टः इति पदं क्तान्तरूपम् उत् इति उपसर्गः कृष् धातुः क्तान्तरूपमस्ति अपि च अत्र पश्यतु महोदय प्रथमम् उद्दिश्य इति आवरणे लिखितमस्ति इन् द ब्राकेट् प्रथमम् उद्दिश्य उद्दिश्य इत्यस्मिन् विषये किञ्चित् वदतु उद्दिश्य इति कीदृशं पदम्
उद्दिश्य
सम्बोधनरूपं
न अत्र उद्दिश्य उद्दिश्य इत्युक्ते अत्र ल्यबन्तरूपं वयं पूर्वमेव पठितवन्तः क्त्वान्तरूपाणि यत्र यत्र उपसर्गः अस्ति तत्र ल्यबन्तरूपं सिद्ध्यति अत्र उद्दिश्य इति पदं ल्यबन्तपदम् उत् उपसर्गपूर्वकः दिश् धातुः तत्र लट्लकाररूपम् उद्दिशति उद्दिशति इति लट्लकाररूपं किन्तु अत्र ल्यबन्तरूपम् उद्दिश्य इति दत्तमस्ति दीपः वदति सम्यक् भवान् महामानवः भवतः आशा का आशा इत्युक्ते भवान् किमिच्छति इति सः वदति अग्रिमं पठतु महोदय शीघ्रं समापयामः
मम इच्छा यात प्रति पूर्वतीम् अगं प्रलयत्नेन करिष्यामि कस्यापि आवरणे दीपं दर्शयित्वा भूतस्य सहायता न अपेक्षिता भगवान् मम कृते भाग्यं निद्रुद्यं कर्टन् कर्णदयं चारुण्यदयं च दत्तवान् मयि बलं बुद्धिः च अस्ति अहं मम बुद्धेः उपयोगं करोमि मम विद्यायाः उपयोगं करोमि उत्तमानि कार्याणि कर्तुं मम चरणाद्यं धावति श्रेष्ठानि कार्याणि कर्तुं
मम
सत्यं सदा चिन्तयम्
सिद्धम् अत्र एकवारम् अहं वदामि अहं पठामि एकवारं शीघ्रं समापयामः अतः मम इच्छायाः पूर्तिम् अहं स्वप्रयत्नेन करिष्यामि प्रथमः बालकः तु उत्तमः बालकः अतः सः वदति मम इच्छायाः पूर्तिम् अहं स्वप्रयत्नेन करिष्यामि भवतः साहाय्यं न आवश्यकं स्वप्रयत्नः इति पदमस्ति स्वप्रयत्नेन करोमि अत्र तृतीयविभक्त्यन्तं रूपमस्ति अहमेव करिष्यामि मम कार्याणि सर्वाणि अपि अहमेव करिष्यामि कस्यापि इत्युक्ते अत्र दीपं दर्शयित्वा सः वदति कस्यापि भूतस्य साहाय्यता न अपेक्षिता ऐ डोण्ट् नीड् द हेल्प् आफ् एनी भूत अत्र भूत इत्युक्ते जैण्ट् इति सः वदति अपेक्षिता कस्यापि सहायता न अपेक्षिता मम कृते अहमेव स्वयं कर्तुं शक्नोमि भगवान् मम कृते बाहुद्वयं दत्तवान् बाहुद्वयम् इत्युक्ते हस्तद्वयं नेत्रद्वयं दत्तवान् नेत्रद्वयम् इत्युक्ते चक्षुद्वयं लोचनद्वयम् एतानि पदानि पर्यायवाचकपदानि लोचनम् इत्युक्ते नेत्रमेव चक्षुः चक्षुद्वयम् इत्युक्ते अपि नेत्रमेव पर्यायवाचकपदं सिनोनिम् फर् दट् नेत्रद्वयं दत्तवान् भगवान् कर्णद्वयम् इत्युक्ते श्रोत्रद्वयं दत्तवान् चरणद्वयम् इत्युक्ते पादद्वयं दत्तवान् भगवान् मम कृते सर्वं दत्तवान् मयि बलं बुद्धि च अस्ति अत्र अरुणा भगिनी एकवारं वदतु मयि रूपं किम्
सप्तमी एकवचनम् अस्मत्शब्दः
उत्तमम् उत्तमं भगिनि धन्यवादः अस्मत् शब्दस्य अहं शब्दस्य सप्तम्यन्तं रूपं मयि बलमस्ति बुद्धिः अपि अस्ति भगवान् मम कृते सर्वं सर्वान् अवयवान् दत्तवान् अतः अहं मम बुद्धेः उपयोगं करोमि. अत्र बुद्धेः बुद्धिः इति पदस्य षष्टिविभक्त्यन्तं रूपं बुद्धेः मम बुद्धेः उपयोगं करोमि, अपि च मम विद्यायाः उपयोगं करोमि. उत्तमानि कार्याणि कर्तुं मम चरणद्वयं धावति. चरणद्वयम् इत्युक्ते पादद्वयं, चरणद्वयं चरणम् इत्युक्ते पादः, चरणद्वयं धावति. धावति इत्युक्ते ऐ वाण्ट् टु डू गुड् थिङ्ग्स् बिकास् गाड् हेस् गिवन् एव्रिथिङ्ग् फ़र् मी. अपि च श्रेष्ठानि कार्याणि कर्तुं मम हस्तद्वयं सदा सिद्धम्. अतः भवतः सहायता अहं न अपेक्षामि इति सः वदति प्रथमः. अधुना चतुर्थः वदति अहमपि मम कार्याणि स्वयं करिष्यामि. अपि च द्वितीयः अपि तथा एव वदति, मम अपि तथैव. अत्र तथैव इति पदमस्ति, तथा योगः एव इति पदमस्ति. अत्र वृद्धिसन्धिः भवति, तथा योगः एव तथैव इति भवति. मम अपि, मम योगः अपि, तत्र सवर्णदीर्घसन्धिः इति वदामः. अत्र मम अपि तत्रापि सन्धिः भवति. द्वितीयः वदति ममापि तथैव, अहमपि सर्वाणि कार्याणि अहमेव करिष्यामि, स्वप्रयत्नेन कर्तुं शक्नोमि, मम कृते किमपि मास्तु. यद्यपि ते प्रथमतया आरम्भे तदावश्यकम् एतदावश्यकम् इति उक्तवन्तः, किन्तु अन्ततो गत्वा ते सर्वे अपि मम कृते किमपि मास्तु, अहमेव स्वस्य कार्याणि कर्तुं शक्नोमि इति ते उक्तवन्तः. तृतीयः अपि तथा एव वदति, मम कार्याणि अहमेव करिष्यामि इति. तत्र चत्वारः बालकाः तादृशरीत्या एव उक्तवन्तः. तत् श्रुत्वा दीपः वदति भवन्तः सर्वे उत्तमाः बालाः, अतः सर्वे गच्छन्तु स्वकार्याणि स्वयं कुर्वन्तु, अहमपि गच्छामि इति सः दीपः वदति. इत्युक्ते ये सर्वे उत्तमाः बालकाः. अत्र नीतिः का, कोऽपि वदतु. अत्र साईकृष्णमहोदय वदतु नीतिः का.
नीतिः सेल्फ् वर्क् इस् इम्पोर्टेण्ट्.
तावदेव इत्युक्ते कोऽपि भूतस्य सहायता न आवश्यकम्. अस्माकं कृते भगवान् सर्वं दत्तवान्, तदर्थम् अस्माकं बुद्धेः उपयोगं कृत्वा, विद्यायाः उपयोगं कृत्वा वयं सर्वे अस्माकं कार्याणि स्वप्रयत्नेन कर्तुं शक्नुमः. इत्युक्ते स्वकार्याणि स्वयमेव करणीयानि इति एव अत्र नीतिः. उत्तमम्. अधुना अत्र स्थगयामः. अग्रिमे सप्ताहे पुनः एकवारं मिलित्वा इतोपि नूतनान् विषयान् ज्ञास्यामः. सर्वेषां धन्यवादः, नमस्कारः.
धन्यवादः.
धन्यवादः. नमस्कारः.
धन्यवादः.